ಪ್ರತಿಗುಂ ಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನಶೃಣ್ವನ್ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ವಾಜಿನೀವತೇ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋದ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತತೇ ನಮಃ ಯಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯಾತವತಯಾನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾತನೋರಘೋರಾ ಪಾಪಕಾಶಿನಿ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಚಾಕಷಿ ಯಾಮಿಷುಂ ಗಿರಿಶಂತ ಹಸ್ತೆ ವಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಶೀ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚದಧಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೀಗಶ್ಚ ಸರ್ವಾಂಜಂಭಯನ್ ಸರ್ವಾಶ್ಚ ಯಾತು ಧಾನ್ಯಃ ಅಸೋ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ವಭ್ರಃ ಸುಮಂಗಳಃ ಯೇ ಚೇವಾಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷಶ್ರುತ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಳ ಈಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉದೈನಂ ಗೋಪಾ ಅದೃಶನ್ನದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ವೀಡುಷೇ ಅಗೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರನ್ ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ತ್ವಮುಭಯೋರಾಗ್ನಿಯೋರ್ಜ್ಯಾಂ ಯಾಶ್ಚ ದೇಹಸ್ಥ ಇಷವ ಪರಾತ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ದೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾಣಾಮುಖ ಶಿವೋ ನ ಸುಮನಾ ಭವ ವಿಜ್ಯಂ ಧನುಃ ಪರ್ದಿನೋ ವಿಷಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶಂ ನ ಶೇಷವ ಆಭುರಸ್ಯ ನಿಷಂಗತಿಃ ಯಾತೇ ಹೇತಿರ್ವೀಡುಷ್ಟವ ಹಸ್ತೆ ಬಭೂವತೇ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ವಮ ಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯ ನಾತತಾಯ ದೃಷ್ಟವೇ ಉಭಾಭ್ಯಾಮುದತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ಋಣತ್ವ ವಿಶ್ವತಃ ಅಥೋ ಯ ಇಷು ನಿಸ್ತವಾರೆ ಅಸ್ಮನ್ನಿಧೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯಬಾಹವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂ ಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯಃ ಪಶೂನಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಸಸ್ಮಿಂ ಜರಾಯ श्रीमते पतीनाम् पतये नमो नमो बभ्लुषाय व्यव्याधिनेनानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथा विने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पक्तीनाम् पतये नमो नम कृष्णवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वंशते परिवंशते स्थायूनाम् पतये नमो नमो निशेरवे परिचरायारण्यानाम् पतये नमो नमः सृकाव्यभ्यो जिघागुं सद्भ्योमुष्णताम् पतये नमो नमो शिवद्भ्यो नक्तम् चरद्यः प्रकृन्दानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्जानाम् पतये नमो नम इषुवद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो दावभ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो भ्रातेभ्यो भ्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः चुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलारेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नमश्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च श्रुतिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मेरुष्टवाय जेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च समृद्ध्वरे च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्र्याय च शीभ्याय च नमः ऊर्म्याय चावत्स्वन्याय च नमः श्रोतस्याय च द्वेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुद्धियाय च नमः सोऽप्याय च प्रतिसद्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरोथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हरङ्ग्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमः शीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सोत्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्द्रे च हरियसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमः ताराय नमः शम्भवे च वयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः शीर्प्याय च गोल्याय च नमः पार्याय च भार्याय च नमः प्रचरणाय चोत्तरणाय च नमः आचार्याय च लाद्याय च नमः शश्व्याय च भेण्याय च नमः चिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रभत्याय च नमः केवंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तरे च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्ण्याय च सूर्ण्याय च नमः पर्ण्याय च पर्णशत्य ಸ್ವಾಧ್ಯಾಯ ಚ ನಮೋ ಪಗುರಬಾಣಾಯ ಚ ಭಿಕ್ಷತೆ ಚ ನಮ ಆಖ್ಯದತೆ ಚ ಪ್ರಖ್ಯದತೆ ಚ ನಮೋ ವಕ್ಯರಿಕೇಭ್ಯೋ ದೇವಾನಾಗುಂ ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೀಣಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ವತ್ಕೇಭ್ಯೋ ನಮ ಆಮಿರ್ಹತೆಭ್ಯೋ ನಮ ಆಮಿವತ್ಕೇಭ್ಯಃ ದ್ರಾವೇ ಅಂಧಸಸ್ಪತೇ ದರಿದ್ರಂ ನೀಲಲೋಹಿತ ಯೇಷಾಂ ಪುರುಷಾಣಾಂ ಯೇಷಾಂ ಪಶೂನಾಂ ಮಾಭೇರ್ಮಾರೋಭೋ ಯೇಷಾಂ ಕಿಂಚ ನಾಮಮತ್ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋ ಶಿವಾ ವಿಶ್ವಾ ಭೇಷಜಿ ಶಿವಾ ರುದ್ರಸ್ಯ ಭೇಷಜಿ ತಯಾರೋ ಮೃಡ ಜೀವಸೇ ಇಮಾಗುಂ ರುದ್ರಾಯ ತವಸೇ ಕಪರ್ದಿನೇ ಕ್ಷಯಕ್ವೇರಾಯ ಪ್ರಬಲಾಮಹೇಮತಿಂ ಯಥಾ ನಶ್ಯಮ ಶತ್ರಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂಗಾಮೇ ಅಸ್ಮಿನ್ನನಾತುರಂ ಋಳಾನೋ ರುದ್ರೋ ತನೋ ಮಯಸ್ಕೃತಿ ಕ್ಷಯಕ್ವೇರಾಯ ನಮಸಾ ವಿಧೇಮತೇ ಯಚ್ಚಂಜಯೋಶ್ಚ ಮನುರಾಯ ಜೇ ಪಿತಾದಶ್ಯಾಮ ತವ ರುದ್ರ ಪ್ರಣೀತೋ ಮಾನೋ ಮಹಾಂತಮುತ ಮಾನೋ ಅರ್ಭಕಂ ಮಾನ ಉಕ್ಷಂತಮುತ ಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ಅಧೇ ಪಿತರಂ ಮೋದ ಮಾತರಂ ಪ್ರಿಯಮಾನಸ್ತನುವೋ ರುದ್ರರೀರಿಷಃ ಮಾನಸ್ತೋಕೇ ತನಯೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಷು ರೀರಿಷಃ ವೀರಾನ್ಮಾನೋ ರುದ್ರಭಾವಿತೋ ವದಿರ್ ಅರಿಷ್ವಂತೋ ನಮಸಾ ವಿಧೇಮತೇ ಆರಾತ್ತೇ ಗೋಘ್ರ ಉತ ಪೋರುಷಗ್ನೇ ಕ್ಷಯಕ್ವೇರಾಯ ಸುಂ ನಮಸ್ಮೇತೇ ಅಸ್ತು ರಕ್ಷಾಜಲೋ ಅಧಿಕದೇವ ಪ್ರೋಯರಾಜನ ಶರ್ಮ ಯಚ್ಚ ತ್ವಿವರಾಹ ಸುಹೃಶ್ರುತಂ ಗರ್ತ ಸದಂಯುವಾನಂ ಮೃಗನ್ನ ಭೀಮಮುಪಹತ್ನು ಮುಗ್ರಂ ಮೃಡಾ ಚರಿತ್ರೇ ರುದ್ರಸ್ತವಾನು ಅನ್ಯಂತೇ ಅಸ್ಮನ್ನಿವ ಪಂತು ಸೇನಾ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇತುರ್ವಿಣತ್ತು ಪರಿತ್ವೇಷಸ್ಯ ದುರ್ಮತಿರಗಾಯೋ ಅವಸ್ತಿ ಭಗವದ್ಭ್ಯಸ್ತನುಶ್ವಮೀಡ್ವಸ್ತೋಕಾಯತನಯಾಯ ಮೃಡಯ ಮೀಡುಷ್ಟಮ ಶಿವ ತಮ ಶಿವೋ ನ ಸುಮನಾ ಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ಯಂ ವಸಾನ ಆಚರ ಪಿನಾಕಂ ಬಿಭ್ರದಾಗಹಿ ವಿಗಿರಿದ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೆ ಸಹಸ್ರಗುಂ ಏತಯೋನ್ಯಮಸ್ಮನ್ನಿವ ಪಂತು ತಾಃ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರದಾ ಬಾಹುವೋತ್ಸವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವ ಪರಾಚೀನಾಮುಖಾಕೃತಿ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರ ಅಧಿಭೂಮ್ಯಾಂ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೇ ವಧನ್ವಾನಿ ತನ್ಮಸೇ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ನವೇಂದರಿಕ್ಷೆ ಭವ ಅಧಿ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠ ಶರ್ವಾ ಅಧಃ ಕ್ಷವಾಚರಾ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾದಿವಗುಂ ರುದ್ರ ಉಪಶ್ರಿತಾಃ ಯೇ ವೃಕ್ಷೇಷು ಸಸ್ಪಿಂಜರಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾಃ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋ ವಿಶಿಖಾಸಕ್ಕಪರ್ದಿನಃ ಯೇ ಅನ್ಯೇಷು ವಿವಿಧ್ಯಂತಿ ಪಾತ್ರೇಷು ಪಿಬತೋ ಜನಾನ ಯೇ ಪತಾಂ ಪತಿರಕ್ಷಯ ಐಲಭೃದಾಯ ವ್ಯುದಃ ಯೇ ನೀರ್ಧಾನಿ ಪ್ರಚರಂತ ಶುಕಾವಂತೋ ನಿಷಂಗಿಣಃ ಯ ಏಕಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸಶ್ಚ ದಿಶೋ ರುದ್ರಾವಿತಸ್ಥಿರೇ ತೇಷಾಂ ಸಹಸ್ರಯೋಜನೇ ವಧನ್ವಾನಿ ತನ್ಮಸೇ ನಮೋ ರುದ್ರೇಭ್ಯೋ ಯೇ ಪೃಥಿವ್ಯಾಂ ಯೇಂದರಿಕ್ಷೆ ಯೇ ದಿವಿ ಯೇಷಾಮನ್ನಂ ವಾತೋ ವರ್ಷಮಿಷವಸ್ತೇಭ್ಯೋ ದಶ ಪ್ರಾಚೇರ್ದಶ దక్షిణా దశ ప్రతిచీర్దశోదీర్దశోద్వాస్తేభ్యో నమస్తే నో మృడయంతు తేయం దిశ్వోయశ్చ నో ద్వేషితం భోజం భేదదామి త్ర్యంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ బంధనాన్ మృత్యోర్ముక్షీయమామృతాత్ యో రుద్రో అగ్నవ్యో అప్సూర్య ఓషధీషు యో రుద్రో విశ్వ భువనాదివేశ తస్మై రుద్రాయ నమో అస్సు ఏతే సహస్రమయుతం పాశా మృత్యో మర్త్యాయ హంతవే తాన్యజ్ఞస్య మాయయా సర్వానవయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః తేనాన్నేనాప్యాయస్వ నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తముష్టు హియశ్వశుసుధన్వాయో విశ్వస్య క్షయతి భేషజస్య యక్ష్వామహేసౌ మనసాయ రుద్రం నమోభిర్దేవమసురందువస్య అయం మే హస్తో భగవానయం మే భగవత్తరః అయం మే విశ్వభేషజోయగుం శివాభివర్షణః ఓం శాంతి 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 ఓం అగ్నా విష్ణు సజోషసేమా వర్ధంతు వాంగిరః జుమ్నైర్వాజేభిరాగతం వాజశ్చ మే ప్రసవశ్చ మే ప్రయతిశ్చ మే ప్రసితిశ్చ మే ధీతిశ్చ మే క్రతుశ్చ మే స్వరశ్చ మే శ్లోకశ్చ మే శ్రావశ్చ మే శ్రుతిశ్చ మే జ్యోతిశ్చ మే శుభశ్చ మే ప్రాణశ్చ మే అపానశ్చ మే వ్యానశ్చ మే శుశ్చ మే చిత్తం చ మాధీతం చ మే వాక్చ మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే బలం చ మాఓజశ్చ మే సహశ్చ మాయుశ్చ మే జరా చ మాత్మా చ మే తనోశ్చ మే శర్మ చ మే వర్మ చ మేంగాని చ మే స్థాని చ మే పరోగుంషి చ మే శరీరాణి చ మే జైష్ట్యం చ మాధిపత్యం చ మే మన్యుశ్చ మే భామశ్చ మే మశ్చ మేంభశ్చ మే జేమా చ మే మహిమా చ మే వరిమా చ మే ప్రతిమా చ మే వర్ష్మా చ మే ద్రాఘుయా చ మే వృద్ధం చ మే వృద్ధిశ్చ మే సత్యం చ మే శ్రద్ధా చ మే జగచ్చ మే ధనం చ మే వశశ్చ మే ద్విషిశ్చ మే క్రీడా చ మే మోదశ్చ మే జాతం చ మే జనిష్యమాణం చ మే సూక్తం చ మే సుకృతం చ మే విత్తం చ మే వేద్యం చ మే భూతం చ మే భవిష్యచ్చ మే సుగం చ మే సుపథం చ మరుద్ధం చ మరుద్ధిశ్చ మే కృప్తం చ మే కృప్తిశ్చ మే మతిశ్చ మే సుమతిశ్చ మే షంచ మే మయశ్చ మే ప్రియం చ మేను కామశ్చ మే కామశ్చ మే సౌమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధర్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసోశ్చ మే శీరం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయచ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే న మిత్రం చ మే అభయం చ మే సుగం చ మే శయనం చ మే సోషా చ మే సుదినం చ మే ఊర్చ మే సోనృత చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధు చ మే సద్గిశ్చ మే సపేతిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే జేత్రం చ మౌర్భిద్యం చ మే రయిశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభుచ మే ప్రభుచ మే బహుచ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే కోయవాశ్చ మేనం చ మే క్షుచ్చ మే మ్రీహయశ్చ మే యవాశ్చ మే మాషాశ్చ మే తిరాశ్చ మే ముద్గాశ్చ మే ఖల్వాశ్చ మే గోధూమాశ్చ మే మసురాశ్చ మే ప్రియంగవశ్చ మేణవశ్చ మే శావకాశ్చ మే నీవారాశ్చ మే అశ్మాచ మే మృత్తికాచ మే గిరయశ్చ మే పర్వతాశ్చ మే శిఖతాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే శేషం చ మే త్రపుశ్చ మే శామం చ మే లోహం చ మే అగ్నిశ్చ మాపశ్చ మే విరుధశ్చ మఔషధయశ్చ మే కృష్టపక్షం చ మే కృష్టపక్షం చ మే గ్రామ్యాశ్చ మే పశవ ఆరణ్యాశ్చ యజ్ఞేన కల్పంతాం విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్ధశ్చ మహేమశ్చ మఇతిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మ ఇంద్రశ్చ మే సోమశ్చ మ ఇంద్రశ్చ మే సవితా చ మ ఇంద్రశ్చ మే సరస్వతీ చ మ ఇంద్రశ్చ మే పూషా చ మ ఇంద్రశ్చ మే బృహస్పతిశ్చ మ ఇంద్రశ్చ మే మిత్రశ్చ మ ఇంద్రశ్చ మే వరుణశ్చ మ ఇంద్రశ్చ మే త్వష్టా చ మ ఇంద్రశ్చ మే ధాతా చ మ ఇంద్రశ్చ మే విష్ణశ్చ మ ఇంద్రశ్చ మే శ్వినౌ చ మ ఇంద్రశ్చ మే మరుతశ్చ మ ఇంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మ ఇంద్రశ్చ మే అంతరిక్షం చ మ ఇంద్రశ్చ మే ద్యౌశ్చ మ ఇంద్రశ్చ మే దిశశ్చ మ ఇంద్రశ్చ మే మూర్ధా చ మ ఇంద్రశ్చ మే ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే అగుంసుశ్చ మే రశ్మిశ్చ మే దాభ్యశ్చ మేధిపతిశ్చ మ ఉపాగుంసుశ్చ మే అంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే మంథే చ మ ఆగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతుగ్రహాశ్చ మే తిగ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వదేయాశ్చ మే మాహేంద్రశ్చ మ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పార్థివతశ్చ మే హారియోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే ధిష్ణీయాశ్చ మే సృజశ్చ మే చమసాశ్చ మే గ్రావాణశ్చ మే స్వరవశ్చ మ ఉపరవాశ్చ మే ధీరవాణీ చ మే ద్రోణకలశశ్చ మే వాయవ్యాని చ మే పూతవృక్ష మ ఆధవనీయశ్చ మ ఆగ్నేర్ధం చ మే హవిర్ధానం చ మే గృహాశ్చ మే సదశ్చ మే पुरोडाशाश्च मे पचताश्च मे ववृतश्च मे स्वगाकारश्च मे अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पं तामृक् च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतं च मे होरात्रयो रुष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे नित्यवाच्च मे नित्यौ हि च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौ हि च मे पष्ठवाच्च मे पष्ठौ हि च मवृक्षा च मे वशा च वर्षभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च मयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियस्त्यान्त्यायनस्त्यान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुग्धामदानिशगुं सिषद्विश्वे देवासूतवाच पृथिवीमातर्मामाहिगुंसीर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तम् मा देव अवन्तु शोभायै पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छय्योरावृणीमहे गातुर्यज्ञाय गातुर्यज्ञपतये देवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद्
स भूमिम् विश्वतो वृत्त्वा अध्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतै यच्च भव्यम् उतामृतत्वस्येषा नः यदन्नेनातिरोहति एतावानस्य महिमा अथो ज्यायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्व उदेत् पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्माद् विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीराज्यम् ग्रीष्म इद्म शरद्धविः सप्तास्यासन्वरिधयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वानाः अभद्नन् पुरुषम् पशुम् तञ्यज्ञम् वरेषिः प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वहुतः संहृदम् वृषदाज्यम् पशोगुस्तागश्चक्रे वायव्यान् आरण्यान् राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋचः सामारिदग्निरे छन्दागुम् द्विजग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एचोभयादतः गावो अजग्निरे तस्मात् तस्माजाता अजावयः यत्पुरुषम् व्यददुः कदिधा व्यकल्पयन् मुखम् किमस्य कौ बाहो काहूरुपादा उच्छेदे ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यकृतः ऊरु तदस्य यद्वैष्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणात् वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यो समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्र विद्वान् प्रदिशस्य तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् तेहनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूतः पृथिव्यैरदाश्च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमे ಆದಿತ್ಯವರ್ಣಂ ಪುರುಷಂ ಮಹಾಂತಂ ಆದಿತ್ಯವರ್ಣಂ ತಮಸಃ ಪರಸ್ತಾತ್ ತಮೇವಂ ವಿದ್ವಾನಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯಃ ಪಂಥಾ ವಿದ್ಯತೆ ಜನಾಯ ಪ್ರಜಾಪತಿಶ್ಚರತಿ ಗರ್ಭೇ ಅಂತಃ ಅಜಾಯಮಾನೋ ಬಹುಧಾ ವಿಜಾಯತೆ ತಸ್ಯ ಧೀರಾ ಪರಿಜಾನಂತಿ ಯೋನಿಂ ಮರೀಚೀನಾಂ ಪದಮಿಚ್ಛಂದಿ ವೇದಸಃ ಯೋ ದೇವೇಭ್ಯ ಆತಪತಿ ಯೋ ದೇವಾನಾಂ ಪುರೋಹಿತಃ ಪೂರ್ವೋ ಯೋ ದೇವೇಭ್ಯೋ ಜಾತಃ ನಮೋ ರುಚಾಯ ಬ್ರಾಹ್ಮಯೇ ರುಚಂ ಬ್ರಾಹ್ಮಂ ಜನಯಂತಃ ದೇವಾ ಅಗ್ರೇ ತದಬ್ರುವನ್ ಯಸ್ತ್ವೈವಂ ಬ್ರಾಹ್ಮಣೋ ವಿದ್ಯಾತ್ ತಸ್ಯ ದೇವಾ ಅಸನ್ವಶೇ ಪ್ರೀಷ್ಯತೆ ಲಕ್ಷ್ಮೀಶ್ಚ ಪತ್ನ್ಯೋ ಅಹೋರಾತ್ರೇ ಪಾರ್ಶ್ವೇ ನಕ್ಷತ್ರಾಣಿ ರೂಪಂ ಅಶ್ವಿನೌ ವ್ಯಾಪ್ತಂ ಇಷ್ಟಂ ಮನಿಷಾಣ ಅಮುಂ ಮನಿಷಾಣ ಸರ್ವಂ ಮನಿಷಾಣ ತಚ್ಛಯ್ಯೋರಾವೃಣೀಮಹೇ ಗಾತುಂ ಯಜ್ಞಾಯ ಗಾತುಂ ಯಜ್ಞಪತಯೇ ದೈವೀ ಸ್ವಸ್ತಿರಸ್ತು ನಃ ಸ್ವಸ್ತಿರ್ಮಾನುಷೇಭ್ಯಃ ಊರ್ಧ್ವಂ ಜಿಗಾತು ಭೇಷಜಂ ಷಣ್ಣೋ ಅಸ್ತು ದ್ವಿಪದೇ ಷಂಚತುಷ್ಪದೇ ಓಂ ಶಾಂತಿ 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 ಓಂ ಅತ್ರಿಣಾತ್ವಾ ಕ್ರಿಮೇ ಹನ್ಮೇ ಕಣ್ವೇನ ಜಪದಗ್ನಿನಾ ವಿಶ್ವಾವಸೋರ್ಬ್ರಹ್ಮಣಾ ಹತಃ ಕ್ರಿಮೀಣಾಗುಂ ರಾಜಾ ಅಭ್ಯೇಷಾಗುಸ್ಥಪತಿರ್ಹತಃ ಅಥೋ ಮಾತಾಥೋ ಪಿತಾ ಅಥೋ ಸೂರಾ ಅಥೋ ಕ್ಷುದ್ರಾ ಅಥೋ ಕೃಷ್ಣ ಅಥೋ ಶ್ವೇತಾ ಅಥೋ ಆಶಾತಿಕಾ ಹತಾಃ ಶ್ವೇತಾಭಿಃ ಸಹ ಸರ್ವೇ ಹತಾಃ ಆಹರಾವದ್ಯಾ ಶ್ರುತಸ್ಯ ಹವಿಷೋ ಯಥಾ ತತ್ ಸತ್ಯಂ ಯದಮುಯ್ಯಮಸ್ಯ ಜಂಭಯೋ ಆದಧಾಮಿ ತಥಾ ಹಿ ತತ್ ಖಂ ಠಂ ಮ್ರಸೇ ಓಂ ಶಾಂತಿ 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 ಓಂ ಅಗ್ನಿಮೀಲೆ ಪುರೋಹಿತಂ ಯಜ್ಞಸ್ಯ ದೇವ ಮೃತ್ವಿಜಂ ಹೋತಾರಂ ರತ್ನಧಾತವಂ ಋಗ್ವೇದಾತ್ಮನೆ ಸೂರ್ಯನಾರಾಯಣ ಸ್ವಾಮಿನೇ ನಮಃ ಇಶೇ ಧ್ವೋರ್ಜೇ ತ್ವಾ ವಾಯವಸ್ಥೋ ವಾಯವಸ್ತ ದೇವೋ ವಸ್ಸವಿತಾ ಪ್ರಾರ್ಪಯತು ಶ್ರೇಷ್ಠತಮಾಯ ಕರ್ಮಣೇ ಯಜುರ್ವೇದಾತ್ಮನೆ ಸೂರ್ಯನಾರಾಯಣ ಸ್ವಾಮಿನೇ ನಮಃ ಅಗ್ನ ಆಯಾಹಿ ವೀತಯೇ ಗೃಣಾನೋ ಹವ್ಯದಾತಯೇ ನಿಹೋತಾ ಸತ್ಸಿ ಬರ್ಹಿಷೇ ಸಾಮವೇದಾತ್ಮನೆ ಸೂರ್ಯನಾರಾಯಣ ಸ್ವಾಮಿನೇ ನಮಃ ಷಣ್ಣೋ ದೇವೀರಭಿಷ್ಟಯ ಆಪೋ ಭವಂತು ಪೀತಯೇ ಶಂಯೋರಭಿಶ್ರವಂತು ನಃ ಅಥರ್ವವೇದಾತ್ಮನೆ ಸೂರ್ಯನಾರಾಯಣ ಸ್ವಾಮಿನೇ ನಮಃ ಘೃಣಿ ಸೂರ್ಯಾದಿತ್ಯೋರ ಪ್ರಭಾವಾತ್ಯಕ್ಷರಂ ಮಧುಕ್ಷರಂತಿ ತದ್ರಸಂ ಸತ್ಯಂ ವೈ ತದ್ರಸಮಾಪೋ ಜ್ಯೋತಿರಸೋಮೃತಂ ಬ್ರಹ್ಮ ಭೂರ್ಭುವಃ ಸುವರೋ ಛಾಯಾ सुवर्चलाम्बासमेत श्रीसूर्यनारायण स्वामिने नमः तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्या विश्वमाभासि लोचनम् उपयाम गृहीतोऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिसूर्याय त्वा भ्राजस्वते छाया सुवर्चलाम्बासमेत श्रीसूर्यनारायण स्वामिने नमः ॐ राम उद्यन्नद्यमित्रमहः मित्राय नमः ॐ ह्रीं आरोहन्नुत्तरान्दिवम् रवये नमः ॐ ह्रूं हृद्रोगम् मम सूर्याय नमः ॐ ह्रैं हरिमाणञ्जनाशया भानवे नमः ॐ ह्रौं शुकेषु मे हरिमाणम् खगाय नमः ॐ ह्रः रोपणाकासु दध्मसि पूष्णे नमः ॐ ह्राम् अथो हारिद्रवेषु मे हिरण्यगर्भाय नमः ॐ ह्रीं हरिमाणन्नि दध्मसि मरीचये नमः ॐ ह्रूं उदगादयमादित्यः आदित्याय नमः ॐ ह्रैं विश्वेन सहसा सह सवित्रे नमः ॐ ह्रौं विशन्तम् मम रन्धयन् अर्काय नमः ॐ ह्रः मो अहम् द्विषतो रथम् भास्कराय नमः ॐ ह्रां ह्रीं उद्यन्नद्यमित्रमहः आरोहन्नुत्तरान्दिवम् मित्ररविभ्याम् नमः ॐ ह्रूं ह्रैं रुद्रोगम् मम सूर्या हरिमाणञ्जनाशया सूर्यभानुभ्याम् नमः ॐ ह्रौं ह्रः शुकेषु मे हरिमाणम् रोपणाकासु दध्मसि खगभूषभ्याम् नमः ॐ ह्रां ह्रीं अथो हारिद्रवेषु मे हरिमाणन्नि दध्मसि हिरण्यगर्भमरीचिभ्याम् नमः ॐ ह्रूं ह्रैं उदगादयमादित्यः विश्वेन सहसा सह आदित्यसवितृभ्याम् नमः ॐ ह्रौं ह्रः द्विषन्तम् बबरन्धयन् मो अहम् द्विषतो रथम् अर्कभास्कराभ्याम् नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं उद्यन्नद्यमित्रमहः आरोहन्नुत्तरान्दिवम् रुरोगम् मम सूर्या हरिमाणम् च नाशया मित्ररविसूर्यभानुभ्यो नमः ॐ ह्रौं ह्रः राम ह्रीं शुकेषु मे हरिमाणम् रोपणाकासु दध्मसि अथो हारिद्रवेषु मे हरिमाणन्नि दध्मसि खगभूषहिरण्यगर्भमरीचिभ्यो नमः ॐ ह्रूं ह्रैं ह्रौं ह्रः उदगादयमादित्यः विश्वेन सहसा सह द्विषन्तम् मम रन्धयन् मो अहम् द्विषतो रथम् आदित्यसवित्रर्कभास्करेभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः उद्यन्नद्यमित्रमहः आरोहन्नुत्तरां दिवम् रुद्रोगम् मम सूर्या हरिमाणम् च नाशया शुकेषु मे हरिमाणम् रोपणाकासु दध्मसि मित्ररविसूर्यभानुखगपूषभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः अथो हारिद्रवेषु मे हरिमाणम् निदध्मसि उदगादयमादित्यः विश्वेन सहसा सह विशन्तम् मम रन्धयन् मो अहम् द्विषतो रथम् हिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः उद्यन्नद्यमित्रमहः आरोहन्नुत्तरां दिवम् रुद्रोगम् मम सूर्या हरिमाणम् च नाशया शुकेषु मे हरिमाणम् रोपणाकासु दध्मसि अधो हारिद्रवेषु मे हरिमाणम् निदध्मसि उदगादयमादित्यः विश्वेन सहसा सह विशन्तम् मम रन्धयन् मो अहम् विशतो रथम् मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्यो नमः आदित्यो वा एष एतन्मण्डलम् तपति तत्र चारुचस्तदृचा मण्डलगुम् सरुचाम् लोकोथय एष एतस्मिन् मण्डलेऽर्चिर्दीप्यते तानि सामानि सताम्नाम् लोकोथय एष एतस्मिन् मण्डलेऽर्चिषि पुरुषस्तानि यजुगुंसि स यजुषा मण्डलगुं स यजुषाम् लोकस्यैषात्रय्येव विद्यातपति य एषोऽन्तरादित्यैरण्मय पुरुषः छाया सुवत्सलाम्बासमेत श्रीसूर्यनारायणस्वामिने नमः आदित्यो वै तेज ओजो बलम् यशश्चक्षुश्रोत्रमात्मा मनो मन्युर्मनुर्मृत्युः सत्यो मित्रो वायुराकाश प्राणो लोकपाल किम् कम् तत्सत्यमन्नममृतो जीवो विश्व कथमस्वयम्भु ब्रह्मैतदमृत एष पुरुष एष भूतानामधिपतिर्ब्रह्मणः सायुज्यगुम् स लोकतामाप्नोत्येतासामेव देवतानागुम् सायुज्यगुम् साष्टितागुम् समानलोकतामाप्नोति य एवम् वेदेत्युपनिषत् छाया सुवत्सलाम्बासमेत श्रीसूर्यनारायण स्वामिने नमः ॐ शान्ति 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 ॐ
सहनावतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विषावहै ॐ शान्ति शान्ति शान्तिः
ॐ अथ पुरुषो ह वै नारायणो कामयत प्रजाश्रयेति नारायणात् प्राणो जायते मनः सर्वेन्द्रियाणि च कं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी नारायणात् ब्रह्मा जायते नारायणात् रुद्रो जायते नारायणालिन्द्रो जायते नारायणात् प्रजापतय प्रजायन्ते नारायणाद्वादशादित्या रुद्र वसवः सर्वाणि च चन्द्रागुंसे नारायणादेव समुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते ॐ अथ नित्यो नारायणः ब्रह्मा नारायणः शिवश्च नारायणः शक्रश्च नारायणः द्यावा पृथिव्यौ च नारायणः कालश्च नारायणः दिशश्च नारायणः ऊर्ध्वश्च नारायणः अधश्च नारायणः अन्तर्बहिश्च नारायणः नारायण एवेदगुं सर्वम् यद्भूतं यच्च भव्यम् निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः न द्वितीयोऽस्ति कश्चित् य एवं वेद स विष्णुरेव भवति स विष्णुरेव भवति ओमित्यग्रे व्याहरेत् नम इति पश्चात् नारायणायेत्युपरिष्ठात् ओमित्येकाक्षरम् नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एतद्वै नारायणस्याष्टाक्षरम् पदम् यो ह वै नारायणस्याष्टाक्षरम् पदमध्येते अनबभ्रुवः सर्वमायुरेते विन्दते प्राजापत्यगुम् रायस्पोषङ्गौपत्यम् ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति एवम् वेद प्रत्यगानन्दम् ब्रह्मपुरुषम् प्रणवस्वरूपम् अकार उकारमकार इति तानि कथा समभरत्तदेतदोमिति यमुक्त्वा मुच्यते योगी जन्म संसार बन्धनात् ॐ नमो नारायणायेति मन्त्रोपासकः वैकुण्ठ भुवन लोकम् गमिष्यति तदिदम् परम् पुण्डरीकम् विज्ञानघनम् तस्मात् तदिदावन्मात्रम् ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्तमेकम् नारायणम् कारणरूपमकारपरब्रह्म एतदथर्वशिरो यो धीते प्रातरति यानो रात्रिकृतम् पापम् नाशयति सायमधि यानो दिवसकृतम् पापम् नाशयति माज्यन्ति न मादित्याभिमुखो धियान पञ्चपादकोपपादकात् प्रमुच्यते सर्ववेदपारायण पुण्यम् लभते नारायण सायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति य एवम् वेद इत्युपनिषत् सहनावतु सहनौ भुनत्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहेशाः गो ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ shanti, shanti, shanti.